मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः स्थिरासनो महाकाय सर्वकर्म विरोधकः लोहितो लोहिताक्षश्च सामगानां कृपाकरः धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः अङ्गारको यमश्चैव सर्वरोगापहारकः वृष्टिकर्तापहर्ता च सर्वकामं फलप्रदः एतानि कूजनामानि नित्यं यः श्रद्धया पठेत् ऋणन्न जायते तस्य धनौ शीघ्रमवाप्नुयात् धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभं कुमारं शक्तिहस्तञ्च मङ्गलं प्रणमाम्यहम् स्तोत्रमङ्गारकस्यैतत् पठनीयं सदा नृभिः न तेषां भौमजा पीडा स्वल्पापि भवति क्वचित् अङ्गारक महाभाग भगवन् भक्तवत्सल त्वां नमामि ममाशेष मृणमाशु विनाशय ऋणरोगादिदारिद्र्यं ये चान्येह्यपमृत्यवः भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा अतिवक्रदुराराध्य भोगमुक्तचितात्मनः तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणा विरिश्चिशक्रविष्णुनां मनुष्याणां तु का कथा तेन त्वं सर्वसत्त्वेन ग्रहराजो महाबलः पुत्रान् देहि धनं देहि त्वामस्मि शरणं गतः ऋणदारिद्र्यदुःखेन शत्रुणां च भयात्ततः एभि द्वादशभिः श्लोकैर्यस्तौति च धरासुतं महतीं श्रियमाप्नोति ह्यपरो धनदो युवा।